येनाक्षरसमाम्नाय मधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः तमश्च अज्ञानजं भिन्नं तस्मै पाणिनये नमः। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। ॐ नमः पाणिनिकात्यायन पतञ्जलिभ्यः शब्दविद्यासम्प्रदायकर्तृभ्यः वंश ऋषिभ्यः ऋषिभ्यः नमो गुरुभ्यः श्रीगुरुचरणारविन्दाभ्यां नमो नमः। इदानीं स्फोटवादस्य परिचयः दातव्यः इति आदिष्टोऽहं यथामति पाणिनीयशब्दानुशासने स्फोटवादस्य स्थितिः कीदृशी, स्फोटवादः किमर्थम् अङ्गीकार्यः, स्फोटो नाम कः इत्यादिकं विषयम् अधिकृत्य यथाशक्ति विवृणोमि। शब्दानुशासनं नाम शास्त्रम्, एतदेव व्याकरणमिति उच्यते। षडङ्गो वेदो अध्येतव्यः इति अध्ययनविधिर्वर्तते। प्रधानञ्च षट्स्वङ्गेषु व्याकरणम् इति, व्याकरणं मुखस्थानीयं मुख्यं प्रधानम् अङ्गं भवति इत्यपि महाभाष्यादिषु दृश्यते। अतः षडङ्गसहितवेदाध्ययने प्रवृत्तः प्रथमं व्याकरणम् अधीयेत। तत्र व्याकरणाध्ययनेन व्याकरणे च कृतो यत्नः फलवान् भवति, प्रधाने च कृतो यत्नः फलवान् भवति इति महाभाष्यवचनमनुसृत्य व्याकरणे परिश्रमः कृतश्चेत् तर्हि षडङ्गसहितवेदाध्ययने सः परिनिष्ठितः भवति, वेदार्थं ज्ञातुं प्रभवति। अतः व्याकरणे श्रमः कार्यः। व्याकरणानि बहूनि सन्ति, पाणिनेः पूर्वमपि बहूनि व्याकरणानि सन्ति इति पाणिनिवचनेनैव ज्ञायते। तत्र आपिशलिः, शाकटायनः, शाकल्यः, भारद्वाजः, गार्ग्यः इत्यादीनाम् नामानि बहूनि श्रूयन्ते अष्टाध्याय्याम्। अतः सत्स्वपि पाणिनीयेते इतरेषु व्याकरणेषु बहुषु, पाणिनीयस्यैव सर्वोत्कृष्टत्वं सर्वैः अङ्गीक्रियते। तत्र किं कारणम् इति चेत् भवता नागेशभट्टेन विवृतं श्रुतिमूलत्वात् अस्यैव व्याकरणस्य वेदाङ्गत्वम् इति। अयुणरुलुग् इत्यादिका चतुर्दशसूत्रसमुदायः यः वर्तते तेतदानुपूर्वीका श्रुतिरेव एषा इति निरूपितं तेन। अन्यथा अस्य श्रुतित्वाभावे सनकसनन्दनादीनाम् उद्धरणं नैव जायेत इति हेतुरपि प्रतिपादितः। अतः श्रुतिमूलत्वात् पाणिनीयमेव व्याकरणं सर्वोत्कृष्टम्। व्याकरणं किं करोति? शब्दानुशासकं व्याकरणं भवति। असाधुशब्देभ्यः विविच्य साधुशब्दान्वाख्यानं व्याकरणेन क्रियते। तर्हि शब्दज्ञानस्य किं प्रयोजनम् इत्युक्ते अर्थावबोधः, अर्थज्ञापनम्। एवञ्च यः शब्दः अस्माभिः उच्यते अथवा श्रूयते सः शब्दः अर्थबोधको भवेत्। वयं बहून् शब्दान् शृणुमः, परन्तु कैश्चित् शब्दैः अर्थः ज्ञायते, कैश्चित् न ज्ञायते। तत्र किं कारणम्? यदि अर्थः ज्ञायते तर्हि तत्र अर्थबोधकः कः इति विचारः प्रस्तुतः। स्फोटवादस्य अवतरणिकायां वृत्तिज्ञानं निरूपितं प्रथमतः। वृत्तिज्ञानं निरूप्य कोऽसौ वृत्त्याश्रयशब्दः इति प्रश्नः समुत्थापितः। तत्र वृत्तिज्ञानं नाम पदैः श्रुतैः सर्वैरपि अर्थबोधः न ज्ञायेत। अतः यस्य पदस्य वृत्तिः ज्ञाता स एव शब्दः अर्थं बोधयति। यत्र वृत्तिज्ञानं नास्ति तत्र तस्मात् शब्दात् अर्थबोधो नास्ति। यतः घटशब्दात् घटो बोद्धव्यः इति ज्ञानम् अस्ति चेत् तर्हि घटपदं श्रुत्वा घटरूपार्थं जानाति। परन्तु यः शक्तिज्ञानवान् न भवति सः शब्दं श्रुत्वापि अर्थं नावबोद्धुं समर्थः भवति। अतः शक्तिरपेक्षते। वृत्तिः नाम शक्तिः लक्षणा व्यञ्जना वा, शक्तिः लक्षणा वा, शक्तिः व्यञ्जना वा इति सन्ति मतभेदाः। वैयाकरणसिद्धान्ते शक्तिः व्यञ्जना इति वृत्तिद्वयं स्वीक्रियते। लक्षणा नाम वृत्त्यन्तरं नास्ति, अप्रसिद्धा शक्तिरेव लक्षणा इति वदन्ति वैयाकरणाः। अस्तु, तत्र तादृशवृत्ति आश्रयः कः इति इदानीं प्रश्नः भवति। रामः गच्छति इति वाक्यं स्वीकुर्मः। तत्र खण्डद्वयं वर्तते, रामः इति सुबन्तं, गच्छति इति तिङन्तं। तत्र रामः इत्यत्र विभक्तिविशिष्टः शब्दः अस्माभिः श्रुतश्चेत् तत्र अर्थबोधकत्वं कस्य इति विचारः अस्तु वर्णानां वाचकत्वं ब्रह्मः इति प्रथमतः वदति सः वर्णानां वाचकत्वं स्वीक्रियते चेत् तर्हि प्रथमतः उच्यमानः रेफवर्णः वाचकश्चेत् तदितरेषां वर्णानां वैयध्यम् आपतति प्रथमवर्णस्यैव वाचकत्वे सिद्धे प्रथमवर्णेनैव अर्थः ज्ञातः भवति अनन्तरम् इतरेषां वर्णानां वैयध्यं भवति अतः एकैकवर्णस्य वाचकत्वं नाङ्गीक्रियते तर्हि अस्तु वर्णसमुदायः वाचकः इति स्वीकुर्मः इति चेत् वर्णसमुदायः उपपादयितुं न शक्यते कुतः इत्युक्ते वर्णाः उत्पद्यन्ते नश्यन्ति च वर्णानां समूहः कथञ्चिदपि उपपादयितुं न शक्यते भगवता भाष्यकारेण उक्तं यावत् गकारे वाग्वर्तते न तादौ उकारे उपसंहृत्य तं यत्नम् अन्यञ्च यत्रमुपादाय अन्यो वर्णः प्रवर्तते इति भाष्यकाराणां वचनं तथा गौः इति प्रयोक्तव्ये प्रथमतः गकार उत्पादकं स्थानप्रयत्नजातं स्वीकृत्य गकारः उच्चार्यते अनन्तरं गकार उत्पत्तिजनकं स्थानप्रयत्नादिकम् उपसंहृत्य औकार उत्पत्तिजनकं स्थानप्रयत्नादिकं स्वीकृत्य औकारस्य उत्पत्तिः भवति यावद् गकारे वाग्वर्तते न तावद् औकारे अतः अनन्तरवर्ण उत्पादकं स्थानप्रयत्नादिकम् अन्यत् पूर्ववर्ण उत्पत्तिजनकं स्थानप्रयत्नादिकम् अन्यत् एतेषां समूहः इत्येतत् न भवति अत एव उच्चरितप्रध्वंसिनः वर्णाः इति वैयाकरणानां परिभाषा उच्चरितप्रध्वंसिनः इत्युक्ते एकस्य वर्णस्य उच्चारणे सति तदनन्तरक्षणे तस्य नाशः भवति अतः तेषां क्षणिकानां वर्णानां समूहः न उपपादयितुं शक्यते अतः तादृशसमूहे शक्तिः इति कथं वक्तुं शक्यते इति प्रश्नः तथा न भवति अव्यवहितोत्तरत्वसम्बन्धेन पूर्ववर्णवत्वं तदुत्तरवर्णे गृह्यते एवञ्च अव्यवहितोत्तरत्वसम्बन्धेन पूर्ववर्णविशिष्ट उत्तरवर्णः वाचकः इति ब्रूमः एवं वर्णप्रत्यक्षम् उपपादयितुं शक्यते इति काचन शङ्का उदयात् परन्तु तदुपर्यपि समाधानम् उक्तं पदप्रत्यक्षं तु यथा कथञ्चित् उपपादयितुं शक्यते एवम् अव्यवहितोत्तरत्वादिसम्बन्धेन परन्तु पदं तु नास्ति पदप्रत्यक्षं तु उपपाद्यते परन्तु पदं तु नास्ति एवञ्च अविद्यमाने पदे शक्तेराश्रयत्वम् अङ्गीक्रियते चेत् अविद्यमाने आश्रयत्वाङ्गीकारः न भवति इति समाधानम् उक्तम् अस्तु अविद्यमानेपि आश्रयत्वं स्वीक्रियते को दोषः इति चेत् तर्हि लौकिकयुक्तिः प्रदर्शिता नष्टो घटो जलवान् इति प्रतीत्यापत्तिः जलवान् घटः इति लोके व्यवहारः अस्ति घटः अस्ति चेत् तत्र जलं निक्षिप्य जलवान् घटः इति व्यवहारः शक्यते परन्तु घटः नष्टः इदानीं न घटः नष्टः घटः स्वीकृतः तत्र जलवान् इति प्रतीतिः उच्यते चेत् कथं भवति नष्टे घटे जलं कथं स्थाप्यते अतः नष्टो घटो जलवान् इति प्रतीत्यापत्तिः किञ्च एकं पदं स्वीकृत्य अयं विचारः क्रियते चेत् तर्हि पदघटकः प्रथमवर्णः नष्टः द्वितीयवर्णः इदानीं तिष्ठति एकः नष्टः अपरश्च विद्यमानः तयोः पौर्वापर्यं सम्बन्धः इत्युच्यते नष्टविद्यमानयोः पौर्वापर्यसम्बन्धः न युज्यते इत्यपि दोषणान्तरम् उक्तम् एवञ्च नष्टो घटो जलवान् इति प्रतीत्यापत्तिः अथवा नष्टविद्यमानयोः पौर्वापर्यसम्बन्धः न युज्यते इत्यपि इत्यादिकं दोषम् अभिधाय वर्णसमूहः अपि वाचकः न भवति इति खण्डितम् तर्हि प्रत्येकं वर्णानां वाचकत्वं नास्ति वर्णसमुदायस्यापि वाचकत्वं नास्ति इति चेत् अर्थवाचकः कः इति प्रश्नः उदेति तदर्थं स्फोटः आवश्यकः इति स्फोटवादस्य अवतरणिका स्फोटवैयाकरणास्तु वदन्ति वाक् चतुर्विधा वर्तते परा पश्यन्ति मध्यमा वैखरी च इति तत्र परा पश्यन्ति मध्यमा वैखरी इति वाग्भेदे अयं स्फोटः कुत्र अन्तर्भवति इति चेत् तत्र मध्यमायां यो नादांशः स एव स्फोटः इत्युच्यते इति उपपादितं स्फोटविषये महाभाष्ये वाक्यपदीये नागेशभट्टप्रणीतायां लघुमञ्जूषायां कौण्डभट्टप्रणीतायां प्रणीते भूषणे भूषणसारे च अयं विचारः महान् प्रवर्तितः बहु विचारितं तैः స్ఫోటవాదః అత్యంతం ఆవశ్యకః స్ఫోటవాదాంగీకారేణైవ ఇదం సర్వం ఉపపాదయితుం శక్యతే ఇది వైయాకరణానాం సిద్ధాంతః. పరంతు సంక్షేపేణ పరిచయః దాతవ్యః ఇతి చేత్ స్ఫోటః ఇతి పదస్య కోర్థః స్ఫోటః కీదృశః ఇత్యాదికం ప్రథమతః జ్ఞాతవ్యం భవతి. స్ఫోటః ఇతి పదస్య అర్థః స్ఫుటతి ప్రకాశతే అర్థః అస్మాత్ ఇతి స్ఫోటః అథవా స్ఫుట్యతే అసౌ ఇతి స్ఫోటః ఇది ద్వేధాపి అర్థం వర్ణయితుం శక్నుమః. అతః స్ఫోటరూపం జగదయతత్ సర్వం ఇతి వైయాకరణానాం సిద్ధాంతః. అనాది నిధనం బ్రహ్మ శబ్దతత్వం యదక్షరం వివర్తతే అర్థభావేన ప్రక్రియా జగతో యతః ఇది భర్తృహరిః వాక్యపదేయస్య ఆరంభే వదతి. అతః అక్షరం నాశరహితం శబ్దతత్వం స్ఫోటః ఇత్యుచ్యతే. తత్ర శబ్దేనైవ అర్థః జ్ఞాయతే శబ్దోపి స్ఫోటరూపః అర్థోపి స్ఫోటరూపః. అర్థాత్ నామరూపాత్మకం జగత్ సర్వం స్ఫోటరూపమేవ. అతః స్ఫోటరూపం జగద్ ఏతత్ సర్వం జగదేతద్ వివర్తతే ఇది సర్వం జగత్ స్ఫోటరూపమేవ. స్ఫోటాతిరిక్తం కిమపి నాస్తి. వైయాకరణ సిద్ధాంతే శబ్దాద్వైతవాదః ఇత్యపి ఏకః వాదః అస్తి. యథా అద్వైతనాం మతే ఏకమేవ బ్రహ్మ సర్వం జగత్ బ్రహ్మరూపమేవ జగత్ బ్రహ్మాతిరిక్తతయా నాస్తి సర్వం కల్పితం బ్రహ్మైవ ఇది యదా వదంతి తథా స్ఫోటరూపం జగత్ సర్వం ఇది ఏతే వదంతి. అతః శబ్దబ్రహ్మణి నిష్ణాతః పరం బ్రహ్మాధిగచ్చతి ఇత్యపి అంతే ఫలశ్రుతిః ప్రతిపాదితా భవతి. అసలు స్ఫోటః ఇత్యుక్తే స్ఫుటతి ప్రకాశతే అర్థః యస్మాత్ ఇది. అతః అర్థప్రకాశకం వస్తు స్ఫోటశబ్దేన ఉచ్యతే. అయం విచారః ఆదౌ పశ్చాన్నిక భాష్యే ఏవ కృతః. తత్ర గౌరి అథ గౌరిత్యత్ర కశబ్దః ఇది ప్రశ్నః భాష్యవృద్ధిః ఉత్థాపితః. తత్ర సమాధానద్వయం ప్రదర్శితం. ఏ నోచ్చారితేన శాసనాలాంగూల కపిల కులవిషాణినాం సంప్రత్యయో భవతి స శబ్దః ఇది ప్రథమతః ఉత్తర. అథవా ప్రతీత పదార్థకో లోకే ధ్వనిశబ్దః ఇది ద్వితీయం సమాధానం ఉక్తం. తత్ర అస్య పక్షద్వయస్యాపి భేదః కః ఇది చేత్ ప్రథమతః ఆంతరస్ఫోటః ఉపపాదితః అనంతరం బాహ్యస్ఫోటః ప్రతిపాదితః. స్ఫోటః ద్విధ ఆంతరస్ఫోటః బాహ్యస్ఫోటశ్చ. ఆంతరస్ఫోటః ఇత్యుక్తే ఏన ఉచ్చారితేన కా శాసనాలాంగూల కపిల కులవిషాణినాం సంప్రత్యయో భవతి స శబ్దః ఇది భాష్యం వర్తతి. తత్ర ఏన ఉచ్చారితేన ఇత్యస్య ఏన ప్రకాశితేన ఇత్యర్థః ఏన అభివ్యంజితేన ఇత్యర్థః. ఉచ్చారణం సాక్షాత్ ఉచ్చారణం నభవతి ఉచ్చారితేన ఇత్యస్య ఏన ప్రకాశితేన ఏన అభివ్యంజకేన ఇది అర్థః వర్ణితః. ఏవంచ శాసనాలాంగూలాదీనాం అర్థః ఏన అభివ్యజ్యతే సహ స్ఫోటః ఇది వదతి. అర్థాత్ అత్ర గౌః ఇది శబ్దం స్వీకృతం శబ్దం స్వీకృత్య విచారయామశ్చేత్ తర్హి గౌః ఇత్యత్ర గకార ఔకార విసర్జనీయాః భవంతి. తత్ర కేవలం గకారః వా ఔకారః వా విసర్గో వా న వాచకః. పరంతు ఏతేషాం సముదాయః తావత్ ఉపపాదయితుం అనర్హ. అతః ఉభయథాపి వాచకత్వం న యుజ్యతి. అతః గకారేణ ఔకారేణ విసర్గేణ చ యః పదార్థః అభివ్యక్తః భవతి సః అభివ్యక్తః పదార్థః వాచకః. తాత్ర అభివ్యక్తస్య పదార్థస్యైవ స్ఫోట ఇతి నామ. తర్హి తత్రాపి ప్రశ్నః భవతి అభివ్యక్తిః ప్రథమవర్ణేన వా ద్వితీయవర్ణేన వా తృతీయవర్ణేన వా సముదాయేన వా ఇతి. యథా వాచకత్వ విషయే అయం శంకా అయం విచారః కృతః తథైవ అత్రాపి అభివ్యంజన విషయేపి అయం విచారః కర్తుం శక్యతే. ప్రథమవర్ణేనైవ తాదృశ పదార్థస్య అభివ్యక్తిః భవతి వా ద్వితీయాది వర్ణానాం సహకారిత స్వీక్రియతే వా ఇతి విచారయతే చేత్ తర్హి ప్రథమవర్ణేనాపి అభివ్యక్తిర్భవతి. పరంతు బోధహేతుత్వం దస్య నాంగీక్రియతే అభివ్యక్తిస్తు భవతి. పరంతు సాంతం తత్ర పదే యః అంతిమో వర్ణః తాదృశ పూర్వపూర్వవర్ణ సహకృత అంతిమవర్ణజన్యా అభివ్యక్తిరేవ బోధహేతు ఇది స్వీక్రియతే. తావత్పర్యంతం బోధకారణత్వం స్థగితం భవతి. ప్రథమవర్ణేనాపి అభివ్యక్తిః భవతి పరంతు తత్ర బోధో న జాయతే. చరమవర్ణ అభివ్యక్తిరేవ బోధహేతు ఇది స్వీక్రియతే. అతః అయం దోషః పరిహృతః. పూర్వ పక్షే తయ్యాయికాదిభిః కచన ప్రణాళీ ఆదృత. పూర్వవర్ణానుభవజన్య సంస్కార సహకృత చరమవర్ణానుభవ అర్థబోధం ప్రతి కారణం ఇది తే వదంతి. तत्र वैयाकरणैः दोषः प्रदर्शितः तर्हि सरः रसः जरा राजा इति समान अक्षरघटितपदद्वयम् आनुपूर्वी तु भिन्ना भवति यथा सरशब्दात् यो अर्थः प्रतीयते सः रसशब्दादपि स एव अर्थः बुध्येत अतः जराशब्दात् यः अर्थः प्रतीयते सः राजा इति शब्दादपि स एव अर्थः ज्ञातो भवेत् इति आशङ्का ज्ञाता परन्तु तत्र समाधानं किं भवति इति चेत् पूर्वपूर्ववर्णानुभवजन्या इति तेषां मर्यादा इति स्वीकृता तर्हि येन क्रमेण अनुभवः तेनैव क्रमेण पदार्थानां स्मरणम् इति नियमो नास्ति अस्माकम् अनुभवेऽपि पदार्थाः अनुभूताः भवन्ति तेषाम् अनन्तरम् अनुभूतस्य पदार्थस्य प्रथमं स्मरणं जायते कदाचित् प्रथमतः अनुभूतस्यैव प्रथमतः स्मरणं भवति परन्तु येन क्रमेण अनुभवः तेनैव क्रमेण पदार्थानां स्मरणम् इति न नियमः अत्र तु सकारोत्तर अकारोत्तर रेफोत्तर अकारोत्तर इत्यादि अनुभूर्वी स्वीक्रियते चेत् सरशब्दः भवति रस इत्युक्ते रेफोत्तर अकारोत्तर इत्यादि क्रमेण अनुपूर्वी वर्णनीया भवति अनुपूर्वीभेदः अस्ति खलु इति चेत् ते एव वर्णाः खलु तादृशवर्णजन्यः अनुभवः समानः अतः अर्थसाङ्कर्यं भवेत् सरशब्द राजाशब्दोच्चारणे जराशब्दार्थं प्रतीतिः स्यात् इति आक्षेपः परन्तु तथा न भवति येन क्रमेण अनुभवः तेनैव क्रमेण स्मरणम् इति न नियमः परन्तु येन क्रमेण संस्कारः तेनैव क्रमेण स्मरणम् इति नियमः भवति स्मृतेर्लक्षणं किं संस्कारमात्रजन्यं ज्ञानं स्मृतिः संस्काराः येन क्रमेण जायन्ते तेनैव क्रमेण स्मृतिः भवति इति संस्कारास्तु अनेन क्रमेण जायन्ते इति उक्त्वा तत्र संस्कारक्रमम् अनुसृत्य स्मृतिः निर्दिष्टतया वक्तुं शक्यते इति कृत्वा राजाशब्दोच्चारणे जराशब्दार्थप्रसङ्ग बोधप्रसङ्गः इति दोषः बाधितः अस्तु एवं चेत् तत्र स्फोटः अवश्यम् अङ्गीकार्यः इति वैयाकरणानां सिद्धान्तः स्फोटम् अनङ्गीकुर्वाणाः इति दार्शनिकाः नैयायिकाः वा मीमांसकाः वा वेदान्तिनः वा स्वे ते स्फोटं नाङ्गीकुर्वन्ति ते स्फोटम् अनङ्गीकृत्यापि अर्थबोधम् उपपादयन्ति परन्तु वैयाकरणानां मते स्फोटः अवश्यम् अङ्गीकार्यः इत्युक्तम् तत्र स्फोटः आर्द्रस्फोटः बाह्यस्फोटः इति द्वेधा स्फोटवर्णनं कृतम् येनोच्चारकेन शासनालाङ्गूलकृतकुर्विषाणां सम्प्रत्ययो भवति इत्यत्र अन्तःस्फोटवर्णनं कृतम्